ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना करणं कर्म कर्तेति त्रिविध कर्म संग्रहः ज्ञानं कर्म च कर्ता च त्रिथैव गुणभेदतः प्रोच्यते गुणसंख्याने यथावत् शृणुतान्यपि
सर्वभूतेषु येनैकं भावमव्ययम् मीक्षते अविभक्तम् विभक्तेषु तज्ज्ञानम् विद्धि सात्विकम्
पृथक्त्वेन तु यद्ज्ञानम् नानाभावान् पृथग्विधान् वेत्ति सर्वेषु भूतेषु तद्ज्ञानम् विद्धिराजसम् यत् तु कृत्स्नवदेकस्मिन् कार्ये सक्तम् अहैतुकम् अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्
नियतम् संगरहितं अरागद्वेषतः कृतं अफलप्रेप्सुना कर्म यत् तत्सात्विकमुच्यते यत्तु कामेऽप्सुना कर्म साहंकारेण वा पुनः क्रियते बहुलायासम् तद्राजसमुदारुतम्
अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम् मोहात् आरभ्यते कर्म यत्तत् तामसमुच्यते
मुक्तसङ्गो नहं वादि धृत्युत्साहसमन्
रागी कर्मफलप्रेप्सु लुब्धो हिंसात्मको शुचिः हर्षशोकान्वितः कर्ता राजस परिकीर्तितः अयुक्त प्राकृतस्तब्ध षठो नैष्कृतिकोलस विषादी दीर्घसूत्री च कर्ता तामस उच्यते
बुद्धेर्भेदम् धृतेश्चैव गुणतस्त्रिविधम् शृणु प्रोच्यमानमशेषेण पृथक्त्वेन दनन् जय प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्विकी
यया धर्मम् अधर्मम् च कार्यम् चाकार्यमेव च अयथावत् प्रजानाति बुद्धि सा पार्थराजसी अधर्मम् धर्ममिति या मन्यते तमसावृता सर्वार्थान् विपरीतांश्च बुद्धि सा पार्थतामसी
धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्विकी
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन प्रसङ्गेन फलकाङ्क्षी धृतिः सा पार्थराजसी यया स्वप्नं भयं शोकं विषादं मदमेव च न विमुञ्चति दुर्मेधा धृतिः सा पार्थतामसी सुखं त्विदानीं त्रिविधं शृणु मे भरत शभ अभ्यासात् रमते यत्र दुःखान्तं च निगच्छति
यत्तदग्रे विषमिव परिणामे मृतोपमं तत्सुखं सात्विकं प्रोक्तं आत्मबुद्धिप्रसादजम्।
विषयेन्द्रियसंयोगात् यत्तदग्रे मृतोपमम् परिणामे विषमेव तत्सुखं राजसं स्मृतम्। यदग्रे चानुबन्धे च सुखं मोहनमात्मनः निद्रालस्य प्रमादोत्थं तत्तामसं उदाहृतम्।
न तदस्ति पृथिव्या
क्षत्रियविषां शूद्राणां च परन्तप कर्माणि प्रविभक्तानि स्वभाव प्रभवै गुणै। शमोदमस्तप शौचम् शान्तिरार्जवमेव च ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्।
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप पलायनम् दानमीश्वरभावश्च क्षात्रं कर्मस्वभावजम्।
कृषिगोरक्ष्यवाणिज्यं वैश्यकर्मस्वभावजम्। परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्। स्वे स्वे कर्मण्यभिरत संसिद्धिं लभते नरः। स्वकर्म निरतः सिद्धिं यथा विन्दति तत् शृणु।
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्
धर्मो विगुणः परधर्मात् स्वनुष्ठिता स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्।
సహజం. కర్మ కౌంతేయ సదోషమపి న త్యజే
అసక్త బుద్ధి సర్వత్ర జీతాత్మా విగత స్పృహ నైష్కర్మ్య సిద్ధిం పరమాం సన్యాసేనాధిగచ్చతి సిద్ధిం ప్రాప్తో యథా బ్రహ్మ తథాప్నోతి నిబోధమే సమాసేనైవ కౌంతేయ నిష్ఠా జ్ఞానస్య యా పరా. బుద్ధ్యా విశుద్ధయా యుక్తో ద్రుత్యాత్మానం నియమ్య చ శబ్దాదీన్ విషయాంస్త్యక్త్వా రాగద్వేషౌ వ్యుదస్య చ.
వివిక్త సేవీ లఘ్వాషీ యత్ వాక్ కాయ మానసః ధ్యాన యోగ పరో నిత్యం వైరాగ్యం సముపాశ్రితః.
అహంకారం బలం దర్పం కామం క్రోధం పరిగ్రహం విముచ్య నిర్మమ శాంతో బ్రహ్మ భూయాయ కల్పతే.
బ్రహ్మభూత ప్రసన్నాత్మా న శోచతి న కాంక్షతి సమః సర్వేషు భూతేషు మద్భక్తిం లభతే పరాం.
భక్త్యా మామభిజానాతి యావన్యశ్చాస్మితత్వతః తతో మాం తత్వతో జ్ఞాత్వా విశతే తదనంతరం. సర్వకర్మాణ్యపి సదా కుర్వాణో మద్వ్యపాశ్రయః మత్ప్రసాదవాప్నోతి శాశ్వతం పదమావ్యయం.
చేతసా సర్వకర్మాణి మయి సన్యస్య మత్పరః బుద్ధియోగం ఉపాశ్రిత్య మచ్చిత్తః సతతం భవ.
మచ్చిత్తః సర్వదుర్గాణి मत्प्रसादात् तरिष्यसि अथ चेत्त्वम् अहंकारान् न श्रोष्यसि विनङ्क्ष्यसि यदहंकारमाश्रित्य न योत्स्य इति मन्यसे मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति
स्वभावजे कौन्तेय निबद्धः स्वेन
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया
तमेव शरणं गच्छ
ज्ञानमाख्यातम् गुह्यात् गुह्यतरं मया विमृश्यैतदशेषेण यथेच्छसि तथा कुरु
सर्वगुह्यतमं भूयः शृणु मे परमं वचः इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्
मन्मना भवमद्भक्तो मद्याजी मां नमस्कुरु मामे वैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे
सर्वधर्मान् परित्यज्य मामेकं शरणं अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मां शुचः
इदं ते न तपस्काय न भक्ताय कदाचन न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति
य इमं परमं गुह्यं मद्भक्ते तेष्वभिधास्यसि भक्तिं मयि परां कृत्वा मामे वैष्यत्यसंशयः न च तस्मान् मनुष्येषु कश्चिन्मे प्रियकृत्तमः भविता न च मे तस्मात् अन्य प्रियतरो भुवि अध्येष्यते च य इमम् धर्म्यं संवादमावयोः ज्ञानयज्ञेन तेनाहम् इष्टः स्यामिति मे मतिः
श्रद्धावाननसूयश्च शृणुयादपि यो नरः सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम्
कच्चिदेतत् श्रुतं पार्थ त्वय्येकाग्रेण चेतसा कच्चित् अज्ञानसम्मोह प्रनष्टस्ते धनञ्जय
अर्जुन उवाच
नष्टो मोह स्मृतिर्लब्धा त्वत्प्रसादान् मयाच्युत स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव
संजय उवाच
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः संवादम् इममश्रौषम् अद्भुतं रोमहर्षणम् व्यासप्रसादात् श्रुतवान् एतद्गुह्यम् अहं परम् योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् राजन् संस्मृत्य संस्मृत्य संवादम् इममद्भुतम् केशवार्जुनयो पुण्यम् रुष्यामि च मुहुर्मुहुः तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरे विस्मयो मे महान् राजन् रुष्यामि च पुनः पुनः
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूते ध्रुवानीतिर्मते मम
ॐ तत्सदिति श्रीमद्भगवद्गीतासोपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्यासयोगो नामाष्टादशोऽध्यायः।